एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारेण राष्ट्रपतेः रामचन्द्र पौडेलस्य स्विट्जरल्याण्ड देशस्य जर्मनी देशस्य च भ्रमण कार्यक्रमः स्वीकृतो वर्तते। सीमप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन राष्ट्रपतेः पौडेलस्य अशीव ज्येष्ठस्य एकत्रिंशे दिवसे जेनेभा नगरे आयोक्ष्यमाणे अन्तर्राष्ट्रिय श्रम सम्मेलने सहभागितायै गमनस्य कार्यक्रमः स्वीकृतोऽस्ति। राष्ट्रपतिः पौडेलः जेनेभा नगराद् जर्मनी देशस्य भ्रमणाय प्रस्थास्यतीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन नेपाल न्याय सेवायाः राजपत्रांकित विशिष्ट श्रेण्यां विद्यमानानां खेमराज गेवालिनः यमबहादुर बुढा मगर इत्यस्य भद्रकाली पोखरेलस्य च पदोन्नयनं विधाय क्रमशः नायब महान्यायाधिवक्तरी न्याय परिषदः सचिव पदे सर्वोच्च न्यायालयस्य रजिष्ट्रार पदे च पदोस्थापनादि निर्णयाः विहिताः सन्तीति संचार मन्त्री शर्मा अज्ञापयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति दृढेच्छया कार्येषु विहितेषु सत्सु नेपालः कतिभिश्चित् वर्षैरेव विकसितं राष्ट्रं भविष्यति। विराटनगरे ह्य प्रारब्धां द्विदिवसीय समाधान मेलाम् उद्घाटयन् प्रधानमन्त्री प्रचण्डः दृढया इच्छाशक्त्या देशाभ्यन्तरे सम्भावनायाः अन्वेषणेन स्रोतसां साधनानां च उपयोगेन च शीघ्रमेव विकासस्य दिशि अग्रे गन्तुं शक्यते इत्यभासत। प्रधानमन्त्री प्रचण्डः प्राकृतिक सम्पदां स्रोतसां साधनानां च दृष्ट्या नेपाले सर्वविधानां सम्भावनानां विद्यमानता स्थिति चर्चयन् कृषेः पर्यटनस्य ऊर्जाक्षेत्रस्य च विकासेन सह औषधीनाम् उपयोगाय बले प्रदत्ते सति नेपालेन प्रत्येकं क्षेत्रेषु प्रगतिर्विधास्यते इत्यवोचत। प्रधानमन्त्री प्रचण्डः नेपाल सर्वकारेण संचालितायाः श्रमाधान मेला परियोजनायाः सप्तसु एव प्रदेशेषु संचालनेन एतादृशैः सर्जनपरैः रचनात्मकैश्च कार्यैः देशस्य आर्थिक विकासाय सहयोगो भवतीति अवोचत। कार्यक्रमे श्रमवृत्त्युपार्जन सुरक्षा मन्त्री डोलप्रसाद अरियालः उद्योगानां व्यवसायानां च प्रवर्धनं विधाय वृत्ति विकासस्य स्थिति सम्भवतीति विषयस्य प्रचारे विहिते सति युवजनशक्तिः विदेश गमनात् रोद्धुं शक्यते इत्यभासत। कार्यक्रमे कोशी प्रदेशस्य मुख्यमन्त्री हिक्मत बहादुर कार्की, नेपाल उद्योग वाणिज्य महासंघस्य अध्यक्ष चन्द्र प्रसाद ढकाला, कोशी प्रदेशस्य उद्योग वाणिज्य महासंघस्य अध्यक्ष राजेन्द्र राउत च विचारान् व्यक्तवन्तः। अन्तरस्य वृत्ति विकासस्य प्रवर्धनस्य वैदेशिक वृत्ति विकासस्य व्यवस्थापनस्य च उद्देश्येन विराटनगरे समाधान मेलायाः आयोजनं विहितं वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः रूढिवादम् अन्धविश्वासं च अपसार्य समाजवादी संस्कृतेः आधारस्य निर्माणाय बलं ददाति। जनसांस्कृतिक महासंघ नेपालस्य अष्टमं राष्ट्रिय सम्मेलनं ह्य काष्ठमण्डपे उद्घाटयन् प्रधानमन्त्री प्रचण्डः समाजवादी सांस्कृतिकान्दोलनाय सामाजिक रूपान्तरणम् आवश्यकम् अस्तीति प्रावोचत्। प्रधानमन्त्री प्रचण्डः अगदत् समाजस्य आधारभूतस्तरं प्राप्य रूपान्तरणाय प्रयासं कृत्वा जनताया जीवन पद्धतिम् समाजवादी संस्कृतेः आधारबिन्दुम् मत्वा वैचारिकीकरणम् विधेयम्। अर्थमन्त्री वर्षमान पुन भासते तथ्याधृतम् आयव्ययकम् प्रस्तुतम् अस्तीत्यतः प्रायः क्षेत्रै सम्बद्ध पक्षैश्च आयव्ययकम् स्वीकृतम् वर्तते। नेपाल आर्थिक पत्रकार संघेन ह्य काष्ठमण्डपे आयोजिते आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य विमर्शन कार्यक्रमे अर्थमन्त्री पुन सम्बद्ध पक्षैः क्षेत्रैश्च सन्तुलितम् आयव्ययकम् प्रस्तुतम् अस्तीति प्रतिक्रिया प्राप्यमाणा अस्तीति असूचयत्। आयव्ययकेन उत्पादनम् उद्योगानाम् संरक्षणाय च बलम् प्रदत्तम् अस्तीति अर्थमन्त्री पुन प्रावोचत्। पश्चात्तन समय सार्वजनिक वित्त व्यवस्थापनाय समस्या सृष्टा स्थिति असौ अभासत। आर्थिकाधिनियमस्य माध्यमेन करस्य परिधेः परिवर्तनम् आवश्यकताम् औचित्यम् च विचार्य विहितम् अस्ति इति असौ न्यश्चिनोत्। प्रतिनिधि सभायाः राज्य व्यवस्था सुशासन समित्या सांविधानिक परिषद सम्बद्धम् विधेयकम् सर्वसम्मत्या पारितीकृतम् वर्तते। सीमा प्रासादे ह्य उपविष्टेन समितेः उपवेशेन षड्षष्ट्युत्तर द्विसहस्रतम विक्रम वर्षीयम् सांविधानिक परिषदः कार्यकर्तव्याधिकार कार्यविधि सम्बद्धम् अधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् सपरिमार्जनम् सर्वसम्मत्या पारितीकृतम् अस्ति। विधेयके सांविधानिक नियुक्तये प्रधानमन्त्रिणी अथ च उपस्थित सदस्येषु प्रतिशतम् पञ्चाशति सदस्येषु सहमतेषु सत्सु एव निर्णयो भवितुम् शक्नोतीति व्यवस्था विहिता अस्ति। सांविधानिक परिषदि षड्सदस्याः भवन्ति। संसद शिक्षा स्वास्थ्य सूचना प्रविधि समिते ह्यस्तनोपवेशे नेपाल विश्वविद्यालय विधेयकम् आधृत्य सूत्रगत विमर्शनम् विहितम् वर्तते। विमर्शने बद्री पाण्डे डाक्टर तोषिमा कार्की चेत्यादय सांसद प्राज्ञिक जनेषु सार्वजनिक प्रतिस्पर्धया कुलपतिम् नियोज्य राष्ट्रिय सभात पारितीकृत्य प्राप्ते विधेयके कुलपतिम् कार्यकारिणम् सम्पाद्य उपकुलपति प्रवृत्तीनि पदानि न्यूनीकर्तव्यानीति प्रस्तावम् प्रस्तुवन्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् नेपालस्य कृते विभिन्नानाम् चतुर्णाम् राष्ट्रानाम् नवनियुक्तैः आवासीय तथा राजदूतैः स्वस्वपदीय प्रमाणपत्रम् प्रस्तुतम् वर्तते। शीतलनिवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते पृथक् पृथक् विशेष समारोहे नेपालस्य कृते गणतन्त्र घाना देशस्य आवासीयतर राजदूतः डाक्टर विनफ्रेडेनी ओकाई हामोण्ड, गणतन्त्र बुल्गेरिया देशस्य आवासीयतर राजदूतः निकोलेई यानकोव, इरिस्ट्रिया देशस्य अलेम बल्डे मारियम, गणतन्त्र फिलिपिन्स राष्ट्रस्य आवासीयतर राजदूतः जोसेल फ्रान्सिसी च स्वकीयम् पदीय प्रमाणपत्रम् प्रस्तुतवन्तः। समारोहे प्रधान परराष्ट्र मन्त्रिणा नारायणकाली श्रेष्ठेन सह उच्चपदस्थाधिकारिणः उपस्थिताः आसन्। वर्षाणाम् सकालस्य च देवतायाः रक्तमस्येन्द्रनाथस्य मासद्वयानन्तरम् रथाकर्षणाय शुभमुहूर्तः निर्धारितो वर्तते। ललितपुरस्य रक्तमस्येन्द्रनाथस्य रथयात्राया क्रमे लगनखेलस्थानात् जावलाखेलस्थानप्राप्तेः पूर्वम् शुभमुहूर्तावलोकनस्य परम्परायानुसारेण मंगलबजारस्य स्वरखुट्टेसत्तले उषित्वा ज्योतिर्विद्भिः आगामिनः श्रावणस्य सप्तदशे दिवसे बृहस्पतिवासरे रथाकर्षणस्य कृते उत्तमा बेला वर्तते। गत वैशाख मासस्य 29 दिवसात् पुलचोक स्थानात् प्रारब्धा रथयात्रेयम् गावहाला सुन्दारा मार्गात् लगनखेलस्थानम् प्रापय्य शुभमुहूर्तम् विलोक्यैव रथ जावलाखेलस्थानम् प्रापयिष्यति। जावलाखेलस्थान प्राप्तेः चतुर्णाम् दिनानाम् अनन्तरम् कञ्चुकम् प्रदर्श्य यात्रेयम् समाप्तिम् एष्यति। पशुपति क्षेत्रस्य गुरु योजना आगामिनः आर्थिक वर्षात् क्रियान्वेष्यते। पशुपति क्षेत्र विकास कोष संचालक परिषद उपवेशे संस्कृति पर्यटन नारीको उड्डयन मन्त्री हितबहादुर तामाङ दक्षिण एसिया क्षेत्रात् विश्वस्य विभिन्न क्षेत्रेभ्यश्च नेपालम् प्राप्तानाम् हिन्दू धर्मावलम्बिनाम् कृते पशुपतिनाथ मन्दिरे पूजाराधने विधातुम् सहायता प्रदानस्य योजनया सह व्यवस्थापकीय पक्षे नवीनतम कार्यक्रमस्य आनयनस्य विषय गुरू योजनायाम् समावि स्थिति मन्त्री तामाङ असूचयत् इति समाचारः।